यन्त्रम् तदपि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथा न जाने मुद्रास्ते तदपि च न जाने विलपनम् परं जाने मातः त्वदनुसरणम् शहरणम् विधेरज्ञानेन द्रविण विरहेणालसतया विधेया शक्यत्वा तव चरणयोर्याच्युतिरभू तदेतत्क्षन्तव्यम् जननि सकलोद्धारिणि शिवे जननि बहवः सन्ति सरलाः परं तेषां मध्ये विरलतरलोऽहं तव सुतः मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे चरण सेवा न रचिता न वा दत्तं देवी द्रविणमपि भूयास्तव मया तथापि त्वं स्नेहं मयि निरुपमं यत्र कुरुषे
पुत्रो जायेत क्वचिदपि
त्यक्ता देवा विविध विध सेवा कुलतया मया पञ्चाशीते रधिकमपनीते तु वयसि इदानीं चिन्मातः तव यदि कृपा नापि भविता निरालं गोलम्बो जननिकं यामि शरणं श्वपाको जल्पाको भवति मधुपाकोपमगिरा निरातङ्को रङ्को विहरति चिरं कोटिकनकैः तवा पर्णे कर्णे विशति मनुवर्णे फलमिदम् को जानीते जननि जपनीयं जपविधौ चिताभस्मालेपो गरलमशनं विपटधरो जटाधारी कण्ठे भुजगपतिहारी पशुपति कपाली भूतेशो जति जगदीशैकपदवीम् भवानी पत्माणि ग्रहण परिपाटी फलमिदम् न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः तस्त्वां संयाचे जननि जननं यातु मम वै गुणानि रुद्राणि शिव शिव भवानीति जपतः नाराधितासि विधिना विविधोपचारि किं रुक्षचिन् परैर्न कृतं वचोभिः श्यामे त्वमेव
यदि किंचन मय्यनाके तत्से कृपामुचितमम्ब परं तवैव।
आपत्सुमग्नः स्मरणं त्वदीयं करोमि दुर्गे करुणालवेशि नैतच्छठत्वं मम भावयेथाः क्षुधार्तुषाता जननीं स्मरन्ति। जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि। अपराध परंपरा परम् नहि माता समुपेक्षते सुतम्। मत्समः पातकी नास्ति पापग्नी त्वत्समा नहि। एवं ज्ञात्वा महादेवी यथा योग्यं तथा कुरु।